शिव की आराधना एवं भक्ति पूर्वक देवर्षि नारद मुनि ने श्री गोपाल सहस्र नाम की रचना की है, जिसे शिव पार्वती संवाद के रूप में प्रस्तुत किया गया है। श्री कृष्ण जी के मनोहर स्वरूप का वर्णन करने के पश्चात गोपाल के 1000 नामों के द्वारा उनकी स्तुति की गई है। ये गोपाल सहस्र नाम शिव आराधकों तथा श्री कृष्ण आराधकों के लिए समान रूप से पूजनीय है। इसके पठन पाठन एवं श्रवण मात्र से सहस्रों बाधाओं का अंत होता है।
ओम नमः पार्वती पते हर हर महादेव, महाकाल महाराज की जय, गोपाल कृष्ण भगवान की जय। वंदे देव उमापतिं सुरगुरौ, वंदे जगत्कारणं, वंदे पन्नगभूषणं मृगधरं, वंदे पशूनां पतिं, वंदे सूर्यशशाङ्कवन्धिनयनं, वंदे मुकुन्दप्रियं, वंदे भक्तजनाश्रयं च वरदम्, वंदे शिवं शंकरं। ओम अस्य श्री गोपाल सहस्र नाम स्तोत्र मंत्रस्य श्री नारद ऋषि अनुष्टुप छंदः। श्री गोपालो देवता कामो बीजं माया शक्तिः चंद्रकिदकं श्रीकृष्ण चंद्र भक्ति रूप फल प्राप्तये। श्री गोपाल सहस्र नाम पाठे विनियोगः। ओम काम मंगुष्ठाभ्यां नमः, ओम क्लीं तर्जनीभ्यां नमः, ओम क्लूं मध्यमाभ्यां नमः, ओम क्लै अनामिकाभ्यां नमः, ओम क्लौ कनिष्ठिकाभ्यां नमः, ओम क्लाः करतलकरपृष्ठाभ्यां नमः, ओम क्लां हृदयाय नमः, ओम क्लीं शिरसे स्वाहा, ओम क्लूं शिखायै वषट, ओम क्लै कवचाय हुम, ओम क्लूं नेत्रत्रयाय वौषट, ओम क्लाः अस्त्राय फट। अथ ध्यानम्। कस्तूरे तिलकं ललाटपटले वक्षस्थले कौस्तुभं, नासाग्रे वरमुक्तिकं करतले वेणुकरे कङ्कणं, सर्वाङ्गे हरिचन्दनं सुललितं, कण्ठे च मुक्तावले गोपास्त्रे परिवेष्टितो विजयते गोपालचूडामणि। फुल्लेन्दीवरकान्तबिन्दुवदनं वरहावसं संप्रियां, श्रीवत्साङ्गमुदारकोस्तुभदरं पीताम्बरं सुन्दरं, गोपीनानयनोत्पलार्चिततनुं गोगोपसन्धावृतं, गोविन्दं कलवेणुवादनपरं दिव्याङ्गभूषं भजे। ॐ क्लीं देवः काममीज शिरोमणिः, श्रीगोपालो महीपाल सर्ववेदाङ्गपारकः, धरणीपालको धन्य पुण्डरीकसनातनः, गोपतेर्भूपतेशास्ता प्रहर्ता विश्वतो मुखः, आदिकर्ता महाकर्ता महाकालो प्रतापवान्, जगज्जीवो जगद्धाता जगद्भर्ता जगत्स्वतः, मत्सो भेमो भर्ता हर्ता वाराहमूर्तिमान्, नारायणो ऋषिकेशो गोविन्दो गरुडध्वजः, गोकुलेन्द्रो महाचन्द्र सर्वरे प्रियकारकः, कमलामुखलोलाक्ष पुण्डरीकभावः, दुर्वासा कपिलो भौम सिन्धुसागरसङ्गमः, गोविन्दो गोपतिर्गोत्र कालिन्द्रे प्रेमपूर्वकः, गोपस्वामी गोकुलेन्द्रो गोवर्धनवरप्रदः, नन्दादिगोकुलदाता दाता दारिद्र्यभञ्जनः, सर्वमङ्गलदाता च सर्वकामप्रदायकः, आदिकर्ता महीभर्ता सर्वसागरसिन्धुजः, गजगामी गजोद्धारी कामी कामकलानिधेः, कलङ्करहितश्चन्द्रो बिम्बासो बिम्बसत्तमः, मालाकार कृपाकार कोकिलाश्वरभूषणः, रामो नीलांबरो देवो हले दुर्मर्दमर्दनः सहस्राक्षपुरेभेता महामारी विनाशनः शिव शिव तमो भेता बलाराति प्रपूजकः कुमारी वरदायी च वरिण्यो मीनकेतनः नरो नारायणो धीरो राधापति युधारतिः श्रीपते श्रीनिदेशे मानुमापते प्रतिराजः वृन्दापति कुलग्रामी धामी ब्रह्म सनातनः रेवती रमणो रामश्चन्द्रश्चर्योचनः रामायणं शरीरोऽयं रामी राम श्रियपतिः सर्वनः सर्वणि सर्वा सर्वत्र शुभदायकः राधा राधायितो राधा राधा चित्तप्रमोदकः राधारतिसुखोपेतो राधा मोहन तत्परः राधा वशीकरो राधा हृदयाम्भोजशरपदः राधा लिङ्गनसम्भोहो राधा नर्तनकौतुकः राधा सञ्जात सम्प्रीतो राधा कामफलप्रदः वृन्दापते कोशनिधे कोकशोकविनाशकः चन्द्रापति चन्द्रपतिश्चण्डको दण्डभञ्जनः रामो दाशरथी रामो भृगुवंश समुद्भवः आत्मा रामज्ञतक्रोधो मोहो मोहाञ्जभञ्जनः वृषभानुर्भवो भाव काश्यपि करुणानिधे कोलाहलो हलिहालि हेलिहलधरप्रियः राधामुखाञ्जमार्तण्डो भास्करो रविजो विधुः विधिर्विधावरुणो वारुणो वारुणो प्रियः रोहिणी हृदयानन्दो वासुदेवात्मजो वरिः नीलाम्बरो रोहिणीयो जरासन्धवतो वरः नागो नवाम्भो विरदो वीरः वरदो वरिः गोपतो विजये भूताधिपेष्ट सनातनः परशुरामो वचग्राही वरग्राही शगालः दमघोषोपदेष्टाज रथग्राही सुदर्शनः वीरपत्नी यशस्त्राता जरा व्याधि विधायकः द्वारकावासतद्वज्ञो हुताशनवरप्रदः यमुना वेग संवारे नीलाम्बरधर प्रभोः विभोशरासनो घन्वे गणेशो गणनायकः लक्ष्मणो लक्षणो लक्षो रक्षो वंशविनाशनः वामनो वामनी भूतो वामनो वामनारुहः यशोदानन्दनाकर्ता यमदार्जुनमुक्तिदः उलोखने महावाणी दामबद्धा वैषमे भक्तानुकाली भगवानो चलधारकः कोशः मधुहा मोहे वशासुरविधायकः अधासुरविनाशे च पूतना मोक्षदायकः कुब्जा विनोद भगवान् कंसमृत्यो महामते अश्वमेघो वाजपेयो गोमेघो नरमेघवान् कन्दर्पकोटिरावण्डं चन्द्रकोटि सुशीतला रविकोटि प्रतीकाशो वायुकोटि महाबलाः ब्रह्मा ब्रह्माण्डकर्ता च कमला वाञ्छितप्रदः कमलो कमलालक्षो कमलामुखलोलुपः कमलावृतधारी च कमलाभसुरन्दरः सौभाग्यादिकचितोऽयं महामायी महोत्कटः तारकारी सुरत्राता मारी चक्षोपतारकः विश्वामित्रप्रियो दान्तो रामो राजीवलोचनः लङ्काभिकुलगन्धे विभीषणवरप्रदः सीतानन्दकरो रामो वीरो वारिधवन्दनः खर्दोशरसंहारे साकेतपुरवासनः चन्द्रावलीपते कोल केशी कंसवदोमरः माधवो मधुहा माध्वे माध्विको माधवो मधुः मुञ्जाटविगहामानो धेनुकारी धरात्मजः वंशेवटविहारी च गोवर्धनवनाश्रयः तथा कालवनो देशे भाण्डेरवनशङ्कः कृणावर्तकथाकारे वृषभानः सुतापतिः राधाप्राणसमो राजा वदनामृतमनुगतः गोपीरञ्जनदैवज्ञो लीलाकमलपूजितः लीलाकमलसङ्गोः गोपिकापि निरञ्जनः रञ्जको रञ्जनो रङ्गो रङ्गीरङ्गमहीरुहः कामः कामानि भक्तोऽयं पुराणपुरुषा कविः नारदो देवलो भीमो बालो बालाङ्गुराङ्गुरः अम्बुजो ब्रह्मसाक्षी च योगिनरतवरो मुनिः ऋषभपर्वतो ग्रामो नदीपवनवल्लभः पद्मनाभसुरो ज्येष्ठो ब्रह्मरुद्रो विभूषितः गणानां प्राणकर्ता च गणेशो ग्रहिणो ग्रही गणाश्रयो गणाध्यक्ष द्रोणीकृतजगत्रयः यादवेन्द्रो द्वारकेन्द्रो मधुरावल्लभो ध्वनि भ्रमः कुन्तले कुन्ते सुतरक्षे महामते यमुना वरदाता च कश्यपश्च वरप्रदः शङ्खचूडवधो धामो गोपीलक्षणतन्त्रः पाञ्चजन्यकरो रामो त्रिनामी वदनो जयः फाल्गुनम् फाल्गुनम् सखो विराडो वदकारकः रुक्मणे प्राणनाथ च सत्यभावा प्रियङ्करः कल्पवृक्षो महावृक्षो दानवृक्षो महाफलः अङ्कुशो भ्रोसरो भावो भ्रामको भ्रामको हरिः सरलशाश्वतो मेरो यदुवंशिशिवात्मकः प्रद्युम्नोपादकर्ता च प्रहर्ता दैत्यः प्रभो महाधरो महावीरो वनमाला विभूषणः तुलसे तामसो भाण्ड्यो जालन्धर विलासनः सुरसूर्यो मृतान्धश्च भास्करो विश्वपूजितः रविस्तमोहावन्यश्च वाडवो वडवानदः दैत्यदर्प विनाशी च गरुडो गरुडागजः गोपीनाथो महीनाथो वृन्दानाथो वरोधकः प्रपञ्चे पञ्चरूपश्च लता गुल्मश्च गोपतिः गङ्गा च यमुनारूपा गोदावेत्रवती तथा कावेरी नर्मदा तापी गण्डकी सरयोस्ततः राजहस्तामसा सत्त्वे सर्वाङ्गे सर्वलोचनः सुधामयो मृतमयो योगिनी वल्लभाशिवः बुद्धो बुद्धिमतां श्रेष्ठो विष्णुसुरेष्णो सचिपतिः वंशी वंशधरो लोको विलोको मोहनाशनः रवरावो नवो रावो बालो बालवधाकः शिवरुद्रो नलो नीलो लाङ्गनी लाङ्गलाश्रयः पारदः पावनो हंसो हंसारूढो जगत्पतिः मोहनी मोहनो मायी महामायो महामखि वृषो वृषा कविकाल काली दमनकारकः उद्याभाग्यप्रदो मीरो रजकक्षयकारकः कोमलो वारुणो राजा जलजो जलधारकः हारकः सर्वपावग्ने परमेष्ठे पितामह खण्गधारी सभागारी राधारमणसुन्दरः द्वादशारण्यसम्भोगी शेषनाग फलालयः कामश्यामुखश्रेता श्रीमते श्रीनिकृत हरिहरो नरो नारो नरोत्तमायुषुप्रियः गोपालैश्चितहर्ता च कर्ता संसारकारकः आदिदेवो महादेवो गौरीगुरुनाशयः साधुर्वादुर्धाता भ्राता क्रूरपरायणः लोलम्बे च हयग्रीवो वनारानिर्वनाश्रयः वनं वनि वनाध्यक्षो महावैद्यो महामुनिः समन्तकमरेप्राज्ञो विघ्नो विघ्नविघातकः गोवर्धनो वर्धनीयो वर्धनी वर्धनप्रियः वर्धन्यो वर्धनो वर्धे वर्धिष्ठो सुमुखप्रियः वर्धितो वृद्धको वृन्दो वृन्दानवजनप्रियः गोपादरमणि भर्ता साम्बकुष्ठो विनाशनः रुक्मणि हरणं प्रेमे प्रेमि चन्द्रावलिपतिः श्रीकर्ता विश्वभर्ता च नरो नारायणो बलिः गणो गणपतिश्चैव दत्तात्रयो महामुनिः व्यासो नारायणो दिव्यो भव्यो भावकधारकः स्वश्रेयं शुभं भद्रं भावितं भाविकं शुभं शुभात्मकं शुभस्ताता प्रशास्ता मेघनादः ब्रह्मण्डो देवदीनानामुद्धारकरणक्षमः कृष्णः कमलपत्राक्षं कृष्णं कमललोचनः कृष्णः कामि सदा कृष्णं समस्तप्रियकारकः नन्दो नन्दे महानन्दे मादिमादनकाकिलिः मिले हिले गिले गोले गोलो गोलालयो गुलिः गोगुले मारकीशाखा वरपदकृतिः यचः कालकर्ता च यशोदा यश एव च अच्युतः केशवो विष्णो हरे सत्यो जनार्दनः हंसो नारायणो नीलो नीलो भक्तिपरायणः जानके वल्लभो रामो विरामो विघ्ननाशनः सहस्रासो महाभानोर्मीरबाहोर्महोदरिः समुद्रो वीरगोपारः पारावारः सरत्पतिः गोकुलानन्दकारी च प्रतिज्ञापरिपालकः सदा रामो महारामो महारामो धनुर्धरः पर्वतः पर्वताकारो गयो गयो विजर्प्रियः कमलाशतकरो रामो रामायणं प्रवर्तकः द्यौर्दिवो दिवसो दिव्यो भव्यो भावभयावः पार्वती भाग्यसहितो भ्राता लक्ष्मी विलासवान् विलासे साहसे सर्वे गर्वे गर्वितलोचनः मुरारी लोकधर्मज्ञो जीवनो जीवनान्तकः यमो यमादियमनो यामि याम विधायकः पांशुले पांशुले पांशु पाण्डुरर्जुनवल्लभः ललिता चन्द्रिकामाला मालिमालाम्बुजाक्षयः अम्बुजाक्षो महायक्षो दक्षिणामणिप्रभोः मणिर्दिनिमणिश्चैव केदारो वदनाश्रयः वदने वनसम्प्रीतो व्याससत्यं वदे सुतः अमराली निहंता च सदा सिंधु विदुर्दयः चंद्रो रवि शिव शूलि चक्री गदाधरः श्रीकर्ता श्रीपति श्रीदा श्रीदेवो देवती सुतः श्रीपति पुंडरीकाक्षो पद्मनाभो जगत्पतिः वासुदेवो प्रमेयात्मा केशवो गरुड़ध्वजः नारायण परमधाम देवदेवो महेश्वरः चक्रपाणि कलापूर्ण वेदवेद्यो दयानिधे भगवान सर्वभूतेषु गोपाल सर्वपालकः अनंतो निर्गुणो अनंतो निर्विकल्पो निरंजनः निराधारो निराकारो निराभासो निराश्रयः पुरुषं प्रणवातीतं मुकुन्दं परमेश्वरः शरावणी सर्वभौमो वैकुण्ठो भक्तवत्सलः विष्णुर्दामोदरं कृष्णो माधवो मधुरापतिः देवके गर्भसम्भूतो यशोदावत्सलो हरिः शिवः शङ्कर्षणो शम्भोर्भूतनाथो दिवस्पतिः अव्ययं सर्वधर्मज्ञो निर्मलो निरुपद्रवः निर्वाणनायको नित्यो नीलजीवो सन्निभः कदाक्षयश्च सर्वज्ञं कमलारूपतत्परः ऋषिकेशपिलावासो वसुदेव प्रियात्मजः नन्दगोपकुमारायो नवनीताशनप्रभुः पुराणपुरुषश्रेष्ठ शस्तपाणि सुविक्रमः अनिरुद्धं च निर्गशाङ्गपाणि चतुर्भुजः गदाधर सुराधिघ्नो गोविन्दो नन्दकायुधः नन्दावन च शौरिर्वेणुवाद्य विशारदः प्रणावृतान्तको भेमो साहसो बहुविक्रमः चकटासुरसंवारी बकासुरविनाशिनः धेनुकासुरसंवारी पूतनारी नृकेशरी पितामहो गुरु साक्षात् प्रत्यगात्मा सदाशिवः अप्रमेयो प्रभो प्राज्ञो प्रतर्क्य स्वप्रवर्धनः धान्यो मान्यो मान्यो भवो भावो धीरः शान्तो जगद्गुरुः अन्तर्यामीश्वरो दिव्यो देवज्ञो देवता गुरुः क्षेराब्धे शयनो धाता लक्ष्मीवा लक्ष्मणाग्रजः धात्रेपतिरमेयात्मा चन्द्रशेखरपूजितः लोकचाक्षी जगच्चक्षु पुण्यचारित्रकीर्तनः कोटिमन्मथसौन्दर्यो जगन्मोहनविग्रह मन्दस्मितामो गोपो गोपिका परिवेष्टितः पुल्लारविन्दनयनश्चानुरान्ध्रनिषूदनः इन्दीवरदश्रामो बर्हे वल्लाभशंसः मुरले निनदादो दिव्यमाल्याम्बराशयः सुखपोदयुगसुभ्रयुगदसुगदाटकः कम्बोग्रीव विशालाक्षो लक्ष्मीवान् शुभलक्षणः पीनवक्षा चतुर्बाहो चतुर्मूर्तिः त्रिविक्रमः कलङ्करहितो शुद्धो दुष्टशत्रो निबर्हणः किरीटकुण्डलकटकाङ्गतमण्डितः मुद्रिकाभरणोपेतः कटिसूत्रं विराजितः मञ्जिलाञ्जितपदा सर्वाभूषणभूषितः विन्यासपादयोगो दिव्यमङ्गलविग्रह गोपिकानयनानन्दपूर्णचन्द्रविभाननः समस्तजगदानन्द सुन्दरो लोकनन्दनः यमुनातीरसञ्चारी राधामन्मथवैभवः गोपनारी प्रियोदान्तो गोपीवस्त्रापहारकः शृङ्गारमूर्ते श्रीधामाकारको मूलकारणम् संशयसंरक्षणोपायः कूरासरविभञ्जनः नरकासुरहारितमुरारी बहिर्वर्दनः आदितेयो प्रियोदैत्यो भीकरश्चेन्दुशेखरः निरासङ्गकुलध्वंसी कंसाराते सुविक्रमः पुण्यश्लोककीर्तनीयो यादवेन्द्रो जगन्मुतः रुक्मिणी रमण सत्य भावाजाम्बवतिप्रियः मित्रविन्दानाङ्गितः सुधाकरकुले जातो नन्दप्रियमलविक्रमः सर्वसौभाग्यसम्पन्नो द्वारकायामुपस्थितः भद्रासूर्यसुतानाथो लीलामानुषविग्रह सहस्रषोडशत्रिशो भोगमोक्षे कदायकः वेदान्तवेद्यसंवेद्यो वेद्यो ब्रह्माण्डनायकः गोवर्धनधरो नाथ सर्वजीवदयापरः मूर्तिमान् सर्वभूतात्मा आर्तत्राणपरायणः सर्वज्ञं सर्वसर्व सर्वशास्त्रविशारदः षड्गुणश्चर्यसम्पन्न पूर्णकामो धुरन्धरः महानुभावकैवल्योदायको लोकनायकः आदिमध्यान्तरहितः शुद्धशास्त्रविग्रहः असमानसमस्तात्मा शरणागतवत्सलः उत्पत्तिस्थितिसंवारकारणं सर्वकारणम् गम्भीरं सर्वभावज्ञं सच्चिदानन्दविग्रह विश्वक्षेण सत्यचन्द्र सत्यवान् सत्यविक्रमः सत्यव्रतः सत्यसंज्ञः सर्वधर्मपरायणः आपन्नाशी प्रशमनो द्रौपदी मानरक्षकः गन्धर्वजगनो प्राज्ञो जगन्नाथवैभवः भक्तिवश्वगुणातीतः सर्वेश्वरप्रदायकः जम्भो सुरद्वेषे बाणबाहो विखण्डनः विश्वभक्ते प्रदो दिव्य कौरवान् महिनाशनः ओन्तेय प्रियबन्धुश्च पार्थसन्दानसारथे नारसिंहो महावीरस्तम्भजातो महाबलः प्रह्लादवरदं सत्यो देवपूज्यो भयङ्करः उपेन्द्र इन्द्रवरदो वामनो मधिमङ्गलः कलेन्द्रवरदस्वामी सर्वदेव नमस्कृतः शेषपर्यङ्कशयनमैनतेयतोजयः अव्याहतबलैश्वर्यसम्पन्न पूर्णमानसः योगेश्वरश्रक्षाक्षी क्षेत्रज्ञो ज्ञानदायकः योगिनेतङ्गजावासो योगमाया समन्वितः नादवेन्दो कलातीत चतुर्वर्गफलप्रदः सुभम्ना मार्गसंज्ञाने देहस्यान्तरसंस्थितः देहेन्द्रियमनप्राणचाक्षुरचेतसाधकः सूक्ष्मसर्वगतो देहि ज्ञानदर्पणगोचरः तत्त्वत्रयात्मको व्यक्तकुण्डली समुपासितः ब्रह्मण्य सर्वधर्मज्ञो शान्तो दान्तो गदकलः श्रीनिवास सदानन्दो विश्वमूर्ति महाप्रभुः सहस्रशीर्षपुरुषः सहस्राक्षः सहस्रपादो समस्तभुवनाधार समस्तं प्राणरक्षकः समस्तं सर्वभावज्ञो गोपिका प्राणवल्लभः नित्योत्सवो नित्यसौख्यो नित्यश्रेयी नित्यमङ्गलः विहार्चितो जगन्नाथो श्रीवैकुण्ठपुरादितः पूर्णानन्दघनीभूतो गोपवेशो धरोहरिः अलापकुसुमं श्यामः कोमलं शान्तविग्रहः गोपाङ्गनाव्रतो नन्दो वृन्दावनसमाश्रयः वेणुवादनसंश्लेषो देवानां हितकारकः बालक्रीडा समासक्तो नवनीतस्करः गोपालकामनीजारश्चारजारश्च कामनेः परज्योतिः पराकाशः परावासः परिस्फुटः अष्टादशाक्षरो मन्त्रो व्यापको लोकपावनः सप्तकोटिमहामन्त्रो शेखरो देवशेखरः विज्ञानज्ञानसन्धानो तेजो राजेर्जगत्पतिः भक्तलोकप्रसन्नात्मा भक्तमन्दारविग्रहः भक्तदारिद्र्यदमनो भक्तानां विविलायकः भक्तादीनमनापूज्यो भक्तलोकशङ्करः भक्ताभीष्टप्रदर्शर्व भक्तागौरीग्रन्दनः अपारकरुणासिन्धुर्भगवान् भक्तरत्परः श्रीराधिका नाम सहस्रनाम कीर्तनम्
स्मरणात्पापराशीनां खण्डनं मृत्युनाशनं वैष्णवानां प्रियकरं महारोगनिवारणं ब्रह्महत्यासुरापानं परस्त्रीगमनं तथा परद्रव्यापहरणं परद्वेषसमन्वितं मानसं वाचिकं कायं यत्पापं पापसम्भवम् सहस्रनाम पठनात् सर्वो नश्यति तत्क्षणात् महादारिद्र्ययुक्तो यो वैष्णवो विष्णुभक्तिमान् कार्तिक्यासं पठेदात्रौ शतमष्टन्तरं कृपात् गीताम्बरधरो धीमान् सुगन्धे पुष्पचन्दनैः पुष्पकं पूजयित्वा तु नैवेद्यादिभिरेव च राधादानाञ्जितो धीरो वनमाला विभूषितः शतमष्टोन्तरं देवी पठे नाम सहस्रकं चैत्रशुक्ले च कृष्णे च पुरुषसङ्क्रान्तिवासरे पठितव्यं प्रयत्नेन त्रैलोक्यमोहयेत् तुलसीमालया युक्तो वैष्णवो भक्तितत्परः रविवारे च शुक्रे च द्वादशाश्राद्धवासरे ब्राह्मणं पूजयित्वा तु भोजयित्वा विधानतः पठे नाम शास्त्रं च तथा सिद्धे प्रजायते महानिशायां सततं वैष्णवो यः पठे सदा देशान्तर्गता लक्ष्मी समायान्ति न संशयः त्रैलोक्ये च महादेवे सुन्दर्यामोहितः मुग्धा स्वयं समायान्ति वैष्णवं च भजन्ति ताः रोगी रोगात्रमुच्येत बद्धो मुच्येत बन्धनात् गुर्भिणे जनये पुत्रं कन्या विदन्ति सत्पते राजानो वशयान्ति पुनः शुद्रमानवः सहस्रनाम श्रवणात् पठनात् पूजनात् प्रियधारणात् सर्वमाप्नोति वैष्णवो नात्र संशयः वंशीवटे चान्यवटे तथापि पदके कदम्बपादमगदे गोपालमूर्तिसन्निधौ यः परे वैष्णवो नित्यं स याति हरिमन्दिरम् कृष्णोक्तं राधिकायै मयि प्रोक्तं पुरा शिवे नारदाय मया प्रोक्तं नारदेन प्रकाशितं मया त्वयि परारोहे प्रोक्तमेतत् सदुर्लभं गोपिनीयं प्रयत्नेन प्रकाशं च कथं जनं चटाय पापिनं चैव लम्पटाय विशेषतः नदातव्यं 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 कदाचनः येयं शिष्याय शान्ताय विष्णुभक्तिरताय च गोदान ब्रह्मयज्ञादेवाजपेयशरस्य च अश्वमेधसहस्रं च फलं पाठे भवेद्ध्रुवं मोहनं स्तवनं चैव मारणोच्चाटनादिकम् यद्यचाचनिमित्तेन तत्त्वं प्राप्नोति वैष्णवः एकादश्यानरस्तात्वा सुगन्धि द्रव्यतैलकैः आहारं ब्राह्मणं दत्त्वा दक्षिणां स्वर्णभूषणं तदा आरम्भकर्ता च सर्वं प्राप्नोति मानवः शतावृत्तसहस्रं च यपडे वैष्णवो जनः
श्रीवृन्दावनचन्द्रस्य प्रसादात् सर्वमाप्नुयात् यद्ग्रहे पुस्तकं देवे पूजितं चैव तिष्ठति
न मालिन्न दुर्विष्टं नोपसर्गभयं क्वचित् सर्पादिभूतयक्षाद्या नश्यन्ति नास्ति संशयः श्रीगोपालो महादेवी वसेतस्य गृहे सदा गृहे यत्र सहस्रं च नाम्ना तिष्ठति पूजते
इति श्रीसम्मोहनतन्त्रे पार्वतीश्वरसंवादे श्रीगोपालसहस्रनाम स्तोत्रं सम्पूर्णं
श्रीमहाकालेश्वरार्पणमस्तु ॐ नमः शिवाय ॐ नमः शिवाय ॐ नमः शिवाय नमः पार्वतीपते हर हर नमः।